एष रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रवाचक उपेन्द्र दाहाल प्रमुख निर्वाचन आयुक्त दिनेश कुमार थपलिया मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत सेमाने प्रतिनिधि सभाया प्रदेश सभानां च निर्वाचने मतदानस्य मतपत्रस्य च गोप्यतां संरक्षितो मनोरुणद्धि प्रमुख निर्वाचन आयुक्त थपलिया अवदत कस्यापि त्रास तर्जनावरोध प्रलोभनेषु न निपत्य गोप्य मतदानेन स्वस्य प्रतिनिधेश चयनस्य अधिकार सुनिश्चितो विधेय प्रमुखायुक्त थपलिया केनापि कुतोपि मतदातृन् त्रास तर्जनावरोध प्रलोभनेषु निपात्य मतदान प्रक्रियाया गोप्यता भञ्जनं कर्तुं कारयितुं च एतद् वैक्रमाब्दानं निर्वाचन आचार संहिताया निर्वाचनापराध दण्डनाधिनियमस्य प्रतिनिधिसभा प्रदेश सभा सदस्य निर्वाचन मतदान निर्देशिकायाश्च अनुसारेण दण्डनीयं भवतीति अवोचत निर्वाचन आयोगेन मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानाय प्रतिनिधि सभाया प्रदेश सभानां च सदस्यानां निर्वाचनाय मतदान केन्द्रेषु छायाचित्रांकनोपकरणं चलभाषयोः अन्येषां निषिद्ध वस्तूनां च निरोधनस्य सम्बन्धे चतुःसूत्रीयं निर्देशनं दातुं निर्णीतं वर्तते मतदानस्य दिने मतदान केन्द्रं प्रविवीक्षुणां मतदातृणाम् अन्येषां व्यक्तीनां च कृते अग्निशलाका छायाचित्रांकनोपकरण चलभाषाणाम् अन्येषां निषिद्ध वस्तूनां च वहनेन विना मतदान केन्द्रेषु आगमनार्थं प्रतिनिधिसभा प्रदेशसभा सदस्य निर्वाचन निर्देशिकाया अनुसारेण सर्वपक्षीयोपवेश विमर्शनं च कारयित्वा आयोगेन सार्वजनिकाह्वानम् अनुरोधश्च वितौ स्तः आयोगेन मतदातृषु अन्यासु व्यक्तिषु वा निषिद्धानि वस्तूनि ऊढ्वा मतदान केन्द्रमागतासु सतिषु तत्कालं दण्डयितुम् अग्निशलाका छायाचित्रांकनोपकरण चलभाषा प्रवृत्तिनि वस्तूनि ऊढ्वा आगतेषु सत्सु मतदान केन्द्रस्य प्रवेश विन्दो स्थापयितुं व्यवस्थां विधातुं मतदान केन्द्रात् बहिः उपयुक्त स्थाने स्थापयितुं निर्दिश्य वा मतदान केन्द्रे प्रवेशनाय अनुमतिं दातुं च निर्दिष्टं वर्तते एतद् विक्रमवर्षीययोः प्रतिनिधिसभा प्रदेशसभा सदस्य निर्वाचन निर्देशिकायाः निर्वाचन आचार संहितायाश्च वैपरीत्येन कार्यं कुर्वतां मतदातॄणाम् अन्येषां व्यक्तीनां च विध्यनुसार दण्डनाय मुख्य निर्वाचनाधिकृतस्य च माध्यमेन मतदान केन्द्रेषु कार्यरतान् सर्वान् मतदानाधिकृतान् सहायक मतदानाधिकृतान् सुरक्षाकर्मिणश्च ज्ञापयितुमपि आयोगेन निर्दिष्टम् वर्तते सर्वकारेण मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानाय प्रतिनिधिसभाया प्रदेशसभानां च निर्वाचनाय दिनद्वयावधये सार्वजनिकावकाशं प्रदातुं निर्णीतमस्ति गृहमन्त्रालयस्य प्रवक्ता फणीन्द्रमणि पोखरेलः आगामिनो मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानाय प्रतिनिधिसभाया प्रदेशसभानां च निर्वाचनाय मार्गशीर्ष मासस्य चतुर्थ पञ्चम दिवसयोः दिनद्वयावधये सार्वजनिकावकाशं प्रदातुं निर्णीतमस्तीति अज्ञापयत् एवमेव मतदानस्थलवर्तिन्यः शिक्षण संस्थाः मार्गशीर्ष मासस्य द्वितीय दिवसात् पञ्चम दिवसं यावत् पिधापयिष्यन्ते इति च प्रवक्ता पोखरेलः असूचयत् राष्ट्रपतिः विद्यादेवी भण्डारी लैंगिक विभेदस्य अन्ताय सर्वेषां पक्षाणां सक्रिय सहभागितायाः आवश्यकतां दर्शयति भास्कर तजश्री स्मृति प्रतिष्ठानेन ह्य शीतल निवासवर्तिनी राष्ट्रपति भवने आयोजिते कार्यक्रमे राष्ट्रपतिः भण्डारी अगदत् लैंगिक विभेदस्य देशस्य सर्वांगीण लैंगिक विभेदेन देशस्य सर्वांगीण विकासे अवरोधः प्राप्यते इत्यतः विभेदस्य अन्ताय सर्वेषां सहयोगः आवश्यकोऽस्ति राष्ट्रपति भण्डारी अवोचत् बाल्यकालात् महिलाभिः षोडभ्यस्य विभेदस्य प्रतिकूल प्रभावः सम्पूर्ण परिवारस्य शान्तौ प्रगतौ च दृश्यमानो वर्तते राष्ट्रपति भण्डारी लैंगिक विभेदः विश्वेन विकासस्य प्रमुख बाधकस्य रूपेण महत्वस्थिति चर्चयन्ति अगदत् सामाजिक आर्थिक क्षेत्रेषु महिलासु विधीयमानस्य भेदभाव पूर्ण व्यवहारस्य अन्ताय नीति निर्मातृभिः विशेषं ध्यानं प्रदातव्यम् कार्यक्रमे प्रतिष्ठानस्य संरक्षक डा भेषबहादुर थापा अध्यक्ष प्राध्यापक डा रीता थापा चेति वक्तार बालिका यौन दुर्व्यवहारात् लैंगिक विभेदाच्च रक्षितुं परिवारस्य सदस्यानां निकटस्थ सम्बन्धिजनानां च अधिक भूमिका भवति इत्यतः एतस्य कृते जनचेतनाया कार्यक्रमाणाम् आयोजनाय बलं प्रादुः प्रधानमन्त्री शेरबहादुर देउवा वदति सदनम् भञ्जित्वा संविधानस्य समापकस्य विरूद्धे गठबन्धनम् निर्मितम् वर्तते। दैलेख जनपदस्य दुल्लुस्थाने गठबन्धनस्य दलैः ह्य आयोजिताम् विशाल जनसभाम् सम्बोधयन् प्रधानमन्त्री देउवा अवदत् संविधानम् रक्षितुम् प्रतिगमनम् रोद्धुम् च गठबन्धनम् निर्मितम् अस्ति। प्रधानमन्त्री देउवा अगदत् तात्कालिक कर्णाली राज्यस्य ग्रीष्मकालिक राजधान्या सिंजास्थानस्य पश्चात् शीतकालिक राजधान्या दुल्लु दैलेखस्य पुरातात्विकेन ऐतिहासिकेन च संरक्षणेन सह पर्यटकीय विकास उच्च प्राथमिकतायाम् समावेक्ष्यते। सभायाम् नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड अभाषत संविधानस्य लोकतन्त्रस्य च रक्षायै संघटितम् लोकतान्त्रिक वाम गठबन्धनम् संविधाने आक्रमणावधिम् यावत् स्थास्यति। असौ गठबन्धनम् निर्वाचनस्य वैपरीत्येन संविधानस्य जनतायाः अधिकाराणाम् च रक्षायै अस्तित्व अब्रवीत्। अध्यक्ष प्रचण्डः अवदत् आसन्न निर्वाचनम् न हि विगतकालिकम् सामान्यम् इव अपितु संविधानस्य रक्षार्थम् वर्तते। अध्यक्ष प्रचण्डः राष्ट्रस्य शान्ताय विकासाय समृद्धाय च लोकतान्त्रिक वाम गठबन्धनम् आवश्यकम् अस्तीति प्रत्यपादयत्। प्रधानमन्त्री शेरबहादुर देउवा जनतया प्रदत्तम् अभिमतम् पूर्णरूपेण परिपाल्यते इति प्रतिबद्धताम् व्यनक्ति। असौभाषत संविधानस्य रक्षायै लोकतान्त्रिक गठबन्धनेन बहुमतम् आनेयम्। पश्चिम नवलपरासी जनपदस्य प्रथम नैर्वाचनिक क्षेत्रे लोकतान्त्रिक वाम गठबन्धनेन ह्य आयोजिताम् नैर्वाचनिकीम् सभाम् सम्बोधयन् प्रधानमन्त्री देउवा अगदत् लोकतन्त्रस्य संविधानस्य च रक्षायै गठबन्धनेन निर्वाचने विजय प्राप्तेः आवश्यकता वर्तते। जनपदस्य पूर्व भागस्य मेहलकुना स्थाने आयोजिताम् नैर्वाचनिकीम् सभाम् सम्बोधयन् प्रधानमन्त्री देउवा अगदत् संविधानस्य क्रियान्वयनाय शान्ति प्रक्रियायाः अवशिष्ट कार्याणि पूरयितुम् च गठबन्धनम् आवश्यकम् वर्तते। कार्यक्रमे नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड अभाषत देशे राजनैतिक परिवर्तनस्य अनुकूल आर्थिक समृद्धेश्च असम्पादनम् यावत् गठबन्धनम् तिष्ठतीति न्यश्चिनोत्। नेपाली कांग्रेस दलस्य उपसभापतिः पूर्णबहादुर खड्का कर्णाली प्रदेश प्राकृतिक स्रोत साधनैः सम्पन्न सन्नपि भौतिक पूर्वाधारेषु पश्चवर्ती अस्ति त्यतः केन्द्रस्य वित्तस्य माध्यमेन कर्णाली प्रदेश पूर्वाधार सम्पन्नो विधेय इत्यत्र बलम् प्रादात्। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली कथयति आगामिना निर्वाचनेन राष्ट्रस्य भविष्यम् निर्धारयिष्यते। नेकपा एमाले दलस्य भक्तपुर जनपदस्य द्वितीय निर्वाचन क्षेत्रस्य क प्रदेश सभा निर्वाचन परिचालन समित्या बालकोस्थाने पूर्वेद्वीय आयोजितायम् नैर्वाचनिकीयम् सभायाम् अध्यक्ष ओली एवं अभाषत।